सर्वेषां संस्कृतकक्षायां स्वागतं. प्रथमतया अहम् एकं श्लोकं वदामि. विद्या ददाति विनयं, विनयात् याति पात्रतां, पात्रत्वात् धनमाप्नोति, धनात् धर्मस्ततः सुखम्. इत्युक्ते विद्याभ्यासात् वयं विनयं प्राप्नुमः. भवन्तः जानन्ति एव विनयः इत्युक्ते न केवलं विनम्रता, परन्तु सम्यक् रीत्या प्रशिक्षणं. केवलं विद्याभ्यासेन एव वयं सम्यक् प्रशिक्षणं प्राप्नुमः. तस्मात् अस्माभिः अर्हता वर्धते, तस्मात् अस्माभिः सामर्थ्यं प्राप्यते. सामर्थ्यवर्धनेन अस्माकं वयं धनं प्राप्तुं शक्नुमः. तद्धनं धर्माचरणार्थम् उपयोगः भवति. धनस्य उपयोगः कः इति वयं चिन्तयामश्चेत् धनं केवलं धर्माचरणार्थम् एव. धनेन एव धर्माचरणसामर्थ्यं वर्धते. अन्ततो गत्वा केवलं धर्माचरणेन एव वयं सुखं प्राप्तुं शक्नुमः. स एव एषः एतस्य श्लोकस्य सारांशः. इत्युक्ते अस्माकं जीवने धर्माचरणेन एव सुखं लभ्यते, न तु धनसम्पादनेन इति वयं अवगन्तव्यम्. अस्माभिः पूर्वजाः पूर्वमेव उक्तवन्तः, एतत् सत्यं, निर्विवादांशविषयः. सम्यक्. अनन्तरं गते सप्ताहे वयं अत्र
नमस्ते भगिनि.
स्वागतं भगिनि.
भगिनि, एतत् श्लोकं पुनरेकवारं ईमेल् मध्ये प्रेषयतु भगिनि. अहं किञ्चित् विलम्बेन आगच्छति. धन्यवादः.
अस्तु भगिनि, अधुना वयं किं कुर्मः अत्र. गते सप्ताहे अहं दिनचर्यायाः विषये किञ्चित् गृहपाठं दत्तवती. सर्वे अपि कानिचन वाक्यानि रचयन्तु इति अहम् उक्तवती. यदि भवन्तः लिखितवन्तः चेत् श्रावयन्तु, कुतूहलजनकानि वाक्यानि श्रावयन्तु. नो चेत् सामान्यानि वाक्यानि अपि समीचीनमेव, परन्तु अहं श्रोतुमिच्छामि अद्य. कः वदति प्रथमतया दिनचर्यायाः विषये कानिचन वाक्यानि? वदतु भगिनि.
प्रातःकाले अहं पञ्चवादनतः उत्तिष्ठामि. तदनन्तरं दशाधिकपञ्चवादने अहं देव पूजागृहं गच्छामि. देवतानां दीपं जलामि.
दीपं ज्वालयामि.
धन्यवादः. ज्वालयामि. तदनन्तरं वाट् इस् दट् फार् ब्रेक्फास्ट् उपहारम्? अल्पाहारम्
किमपि अल्पाहारं वदतु.
अल्पाहारं कर्तुं पाकगृहं गच्छामि.
पाकशालां गच्छामि.
गच्छामि. दौहित्री
किमर्थं दुहिता? अत्र दुहितायाः पुत्री. यथा गतवारं वंशीसुधा भगिनी उक्तवती, दुहिता इत्युक्ते सा सम्यक् उक्तवती. तदेव
दौहित्री शालां गन्तुम् इच्छति सप्तवादने तस्मात् अहम् अल्पाहारं च भोजनं मध्याह्नभोजनात् तः शालेन स्वीक शाला शालाय शालां स्वीकृतः नो नो
वदतु भगिनि
क्षम्यताम् मध्याह्नभोजनार्थं करिष्यामि भोजनं
मध्याह्नभोजनं करिष्यामि अथवा मध्याह्नभोजनं खादामि
द्वादशवादने मध्याह्ने अहं भोजनं खादामि
उत्तमम्
अन्नं च शाकानि च दधि च खादामि
खादामि
सायङ्काले अर्धत्रीणि वादने
पुनः वदतु भगिनि सार्ध
सार्धत्रिवादनं
सार्धत्रिवादने त्रिवादने
दौहित्री गृहं प्रति गच्छति
उत्तमं
स्नाक्स्
किमपि उत्तमम् अनन्तरं धन्यवादः भगिनि अनन्तरं कोऽपि अन्ये वक्तुमिच्छति चेत् वदन्तु कः वदति वदतु महोदय
मम दिनचरी अहं प्रातः सार्धचतुर्वादने उत्तिष्ठामि मुखप्रक्षालनं कृत्वा देवतागृहस्य पुरतः दीपं प्रज्वाल्य किञ्चित् कालं यावत् ध्यानं करोमि तदनन्तरं क्षीरम् उष्णीकृत्य काफी पेयं करोमि पास्यामि च पञ्चवादनतः षड्वादनपर्यन्तं संस्कृत अभ्यासं करोमि षड्वादनतः सार्धसप्तवादनपर्यन्तम् अन्तर्जालमाध्यमेन स्वरूपर्यस्य संस्कृतकक्षां पाठं पठामि अष्टवादने स्नानादिकं समाप्य पूजां करोमि नववादने अल्पाहारं स्वीकृत्य कार्यालयं गच्छामि सायं षड्वादने कार्यालयतः प्रत्यागत्य किञ्चित् कालं यावत् दूरवाहिनीं द्रक्ष्यामि सङ्गीतं शृणोमि भार्यया सह अपि च पुत्र्या एवं पुत्रेण सह जल्पनं करोमि सार्ध अष्टवादने रात्रिभोजनं कृत्वा पुनः दशवादनपर्यन्तं दिनपत्रिकां वा अन्तर्जाले मुखपुस्तकं वा दृष्ट्वा कालयापनं करोमि रात्रौ सार्धदशवादने शयनं करोमि
उत्तमं महोदय सम्यक् सम्यक् अन्यके सतीश् महोदय भवान् वक्तुमिच्छति वा
प्रश्नः अस्ति
वदतु महोदय
महोदय अवदत् प्राल्यापनं किमर्थं
कालयापनम् इत्युक्ते केवलं
कालयापनं
कालयापनं करोति
नमस्ते भगिनि
आम् अहम् इदं न लिखितम् इदं न लिखितं परम् अहमेव वदामि अहं सप्तवादने उत्तिष्ठामि तत्र दन्तकूर्चात् कृत्वा दन्तकूर्चाणि कार्याणि कृत्वा अल्पाहारार्थम् अहं पाकशालां गच्छामि तत्रतः अहं सार्धवादनपर्यन्तं संस्कृतं पठामि च सङ्गीताभ्यासं तु एकघण्टापर्यन्तं करोमि
संस्कृताभ्यासं करोति वा भवान्
या भवान् अर्धघण्टा संस्कृताभ्यासं करोमि
संस्कृतं वा अथवा सङ्गीतं वा
संस्कृतं पात् अर्धघण्टा करोमि सङ्गीताभ्यासम् एकघण्टा करोमि च
ओ सङ्गीताभ्यासम् इत्युक्ते किं महोदय भवान् किं करोति
उत्तरभारतीयसङ्गीत उत्तरभारतीयशास्त्रीयसङ्गीत अभ्यासं चिरकालतः करोमि स्म.
भवान् भवान् किमपि वादनं वादयति वा अथवा नो चेत् गात्रसङ्गीतम्
अपि अहं चिरकालेन करोमि. गात्रसङ्गीते गहन समस्या अस्ति. एकजीवनपर्यन्तमपि समुचित नास्ति इति अहं चिन्तयामि.
सम्यक् महोदय, तत्तु सत्यमेव.
तत्पश्चात् अहं सङ्ग्रहकार्यभारं करोमि. अहं कार्यनिवृत्तो अस्मि सो किञ्चित् गृहभार्यं करोमि. तत्पश्चात् समाचारपत्रं च पठामि, किञ्चित् पुस्तकानि च पठामि च इत्यादयः इदं समयं यापयामि.
उत्तमं महोदय, सम्यक् दिनचर्या सम्यक् अस्ति. उत्तमम्. अन्य कोऽपि वक्तुमिच्छति वा? वदन्तु, अहं श्रोतुमिच्छामि अद्य.
भगिनी, अहं न लिखितवती परन्तु प्रयत्नं करोमि.
वदतु भगिनि.
ह्यः अहं सहकुटुम्ब एक कान्सर्ट् गतवती.
कुटुम्बे भवती कुटुम्बेन सह एकं
कुटुम्बेन सह हा धन्यवादः भगिनि. कुटुम्बेन सह कान्सर्ट् गतवती. तत्र आर्टिस्ट्
कः कः कस्याः कार्यक्रमः
ओके नाट् अस्ति बट् कार्यक्रमः फर् पास्ट् टेन्स् भगिनि.
अहं पृच्छामि, कस्याः कार्यक्रमः
कार्यक्रमः सितार् वादनं वाट् इस् अस्ति इन् भूतकाला भगिनि?
कः वदति? अहं वदामि परन्तु कः वदति अत्र अस्ति पदस्य भूतकालरूपम्?
आसीत्.
उत्तमं,
धन्यवादः महोदय. सितार् वादनम् आसीत्. आर्टिस्ट् ऐ केन्ट् रिमेम्बर्, अहं न स्मरामि अधुना पदम्, आर्टिस्ट् पदम्
रविशङ्कर् महोदयस्य पुत्री
अनुष्का शङ्कर् आगतवती. बहु सम्यक् आसीत्. अद्य अहं सार्धपञ्चवादने उत्तिष्ठामि. स्नानानन्तरे ध्यानं करोमि, कृतवती ध्यानानन्तरे स्नानं कृतवती स्नानानन्तरे ध्यानं कृतवती, अल्पाहारं स्वीकृतवती. अधुना अहं संस्कृतकक्ष्यां संस्कृतं पठामि. तदनन्तरम् अहं
भगिनी, अत्र अहम् एकं प्रश्नं पृच्छामि. सर्वे चिन्तयन्तु, भवती ध्यानं कृतवती, सम्यक् उत्तमं, परन्तु ध्यानेन कः लाभः? कः वदति? सम्यक् चिन्तयित्वा वदन्तु. उत्तरम् अहं ज्ञातुमिच्छामि. ध्यानेन
मनः सन्तुष्टं भवति.
पुनः वदतु भगिनि.
ध्यानेन मनः सन्तुष्टं भवति, अपि च परमात्मयोः सम्पर्कं मिलति.
अहं चिन्तयामि कान्सन्ट्रेशन् वर्धते.
क्षम्यतां भगिनि, अहं प्रश्नं न.
वयं सर्वे भगिनी केवलम् अहं पृच्छामि, अत्र भवती ध्यानं करोति तत्तु सम्यक् एव, परन्तु ध्यानेन कः लाभः इत्युक्ते ध्यानं कुर्मः चेत् किं भवति अस्माकं मनसि, किं भवति तेन कः लाभः?
ध्यानेन एज भगिनी वदति एकाग्रता, भक्ति
वर्धति,
मुख्यानि क्लोज़नेस टु गॉड, परायणं भगिनी,
अत्र उत्तमम्. अत्र भवती यदुक्तवती तत्तु समीचीनमेव, परन्तु अत्र वर्धते एकम् एव पद, एकमेव पदमस्ति तत्र, आत्मनेपदी. अत्र क्रियापदेषु त्रीणि त्रिविधाः सन्ति क्रियापदानि. अत्र एकमस्ति आत्मनेपदिनः, द्वितीयमस्ति परस्मैपदिनः, तृतीयम् उभयपदिनः. परन्तु अत्र वृद्धधातुः आत्मनेपदि, अतः वर्धते, वर्धते इति वदामः. सम्यक् भगिनी. अनन्तरम् इतोपि वक्तुमिच्छति वा? वदतु.
कः भगिनि
इतोपि वक्तुमिच्छति वा भवती, शोभा भगिनि?
तद् संस्कृतपाठ कक्षायां अनन्तरं अहं योगाशाला योगाभ्यासार्थं गच्छामि. द्वादशवादनतः एक सपाद एकवादनपर्यन्तं, तदनन्तरम् अहं पाकं पचनं करोमि.
यदि पाकं करोमि अथवा अहं भोजनं पचामि,
ओके, पाकं करोमि, तदनन्तरं
भगिनि तत्र अहम् अन्नं पचामि अथवा अहम् अन्नस्य पचनं करोमि अथवा अहम् अन्नं पाकं करोमि,
अन्नं पाकं करोमि अथवा अन्यस्य
पचनं करोमि.
अस्तु भगिनि. तदनन्तरं संस्कृत अभ्यासं करोमि, आध्यात्मिकपुस्तके पुस्तकानि पठामि.
उत्तमम्. अत्र सम्यक् भगिनी, अत्र विलम्बेन केनापि आगतं वा? नाम उच्यतां कृपया. इट् लुक्स् लैक् सम्बडि जायिन्ड् द क्लास् लेट्. अत्र 301601 कस्याः दूरवाण्याः सङ्ख्या? 301601 नाम उच्यताम्. अपि च 970 कस्याः दूरवाणीसङ्ख्या? न श्रूयते, नाम उच्यताम्.
लक्ष्मी भगिनी, शैलजा हियर, ऐम् जस्ट् लिसनिङ्ग्, ऐम् अट् वर्क्, ऐ विल् जायिन् ट्यूस्डे बट् ऐ विल् लिसनिङ्ग् टुडे.
उत्तमम्. परन्तु यदि भवन्तः श्रोतुमिच्छन्ति चेदपि नाम उच्यताम्. Even if you just want to listen to the class, I just want you to announce your name. Uttamam. Anantram,
idanim pari... Hariyom Mahode, aham Bhanu Chaitanya api asmi, tatra.
Uttamam Mahode, vagatam. स्वागतम्. इदानीं पर्यन्तं वयं दिनचर्या किमर्थम् इत्युक्ते गतसप्ताहे वयं दिनचर्यायाः विषये किञ्चित् गृहपाठम् अहं दत्तवती, अतः एव अहं कान् भवन्तः यदि वदन्ति चेत् अहं वक्तुम् अहं श्रोतुमिच्छामि. अतः एव दिनचर्यायाः विषये तथा अभवत्. परन्तु अत्र अहम् एकं वक्तुमिच्छामि. साधारणतया दिनचर्या कथं भवितव्यं, हौ शुड् बि द डैलि रुटीन् इति अस्माकं पूर्वजाः पूर्वमेव उक्तवन्तः. प्रातः उत्थानानन्तरं वयं सर्वे एकं श्लोकं पठामः.
अग्रे अस्मि लक्ष्मी.
उत्तमं महोदय, वदतु, तदेव वदतु.
लक्ष्मी मध्ये सरस्वती करमूलं च गोविन्दं प्रभाते करदर्शनं.
उत्तमं, प्रभाते करदर्शनम्, उत्तमम्. अत्र किमर्थम् अयं श्लोकः स्मर्तव्यः? वै शुड् बि रीड् दिस्, वै शुड् बि चाण्ट् दिस् श्लोक इत्युक्ते अहं किञ्चित् वदामि. किमर्थमित्युक्ते कराग्रे वसते लक्ष्मीः इत्युक्ते कराग्रे इत्युक्ते करस्य अग्रे अस्माकम् अङ्गुल्यः सन्ति इत्युक्ते करस्य अङ्गुल्यः अङ्गुलीभिः एव वयं किमपि कार्यं कर्तुं शक्नुमः. यदि अङ्गुल्यः सम्यक् नास्ति न सन्ति चेत् वयं किमपि कार्यं कर्तुं न शक्नुमः. अतः एव अस्माकं कराभ्याम् अग्रे अङ्गुल्यः सन्ति, अङ्गुलीभिः एव वयं कार्यं कुर्मः. अतः एव कराग्रे वसते लक्ष्मीः, वयं कार्यं कुर्मः चेदेव लक्ष्मी अस्माकं पार्श्वे आगच्छति, नो चेत् न. तथा एव यदि वयं पठितुमिच्छामश्चेत् वयं पुस्तकं करस्य मध्यभागे स्थापयित्वा पठामः. अतः करस्य मध्यभागे सरस्वती वसति. अनन्तरं यदि वयं भूमौ पतामश्चेत् अस्माकं शक्तेः आवश्यकता अस्ति. अतः करमूले अस्माकं शक्तिः अस्ति. अतः सर्वे प्रातः उत्थानानन्तरं करस्य दर्शनं, प्रभाते करदर्शनं इत्युक्ते प्रभातसमये करस्य दर्शनं कृत्वा वयम् अन्यानि कार्याणि कर्तव्यम् इति सः श्लोकः वदति. इत्युक्ते करस्य प्राधान्यता बहु प्राधान्यता अस्ति. प्रभातसमये तदर्थमेव करदर्शनं करणीयम् इति अस्ति. अनन्तरं यदि भवन्तः वक्तुमिच्छन्ति चेत् अस्माकं ध्वनिमुद्रणम् अपि श्रोतव्यं. किमर्थं ध्वनिमुद्रणं श्रोतव्यं? ध्वनिमुद्रणस्य श्रवणेन कः लाभः? एकम् एकं वाक्यं वदन्तु सर्वे. कः वदति?
ध्वनिमुद्रे
एकं संशयमस्ति.
वदतु महोदय.
लक्ष्मी किमर्थम् अग्रे अस्ति महोदय?
यदि भवान् किमपि कार्यं कर्तुम् इच्छति चेत् करस्य अङ्गुलीभिः एव वयं कार्यं कर्तुं शक्नोति. चिन्तयतु, मनसि चिन्तयतु, यदि भवान् किमपि कार्यं पाकं करोति चेदेव, नो चेत् किमपि लेखितुमिच्छति चेत्, नो चेत् किमपि कार्यं कर्तुम् अङ्गुल्यः आवश्यकाः. अतः यदि कार्यं अत्र तदर्थमेव यदि कार्यं कर्तुं चेदेव धनमागच्छति, नो चेत् न. तदर्थं तदा एव यदि वयं पठितुमिच्छामश्चेत् पुस्तकं करस्य मध्यभागे, पुरातनकाले तदा अभवत् परन्तु अद्य न, अद्य वयं सर्वे सङ्गणकम् उपयुज्य पठामः.
इदानीमेव पुस्तकम् अस्ति.
तदर्थमेव करस्य मध्ये करमूले स्थिता गौरी, यथा कराग्रे शक्ति, कराग्रे वसते लक्ष्मी, करमध्ये
गोविन्द अपि पाठभेदमस्ति.
अत्र करमूले स्थिता गौरी इति वदामः. तदपि समीचीनमेव. अत्र
गोविन्द तदर्थं कार्यं करोति, पालयति इदानीमेव सर्वे गौरी विष्णुः भातृ एव सम्यक् वदति न महोदय
अत्र अत्र अहं चिन्तयामि लक्ष्मी सरस्वती गौरी गौरी इत्युक्ते शक्तिः पार्व
गोविन्दः एव गोविन्दः भव वदति गोविन्दः गौरी एव भ्राता भगिनी एव अस्ति तदनन्तरं गौरी या गोविन्दः समान एव अस्ति
समानः अस्ति चेत् सम्यक् एव सम्यक् उत्तमम् अनन्तरं तदर्थमेव वयं सर्वे प्रभातसमये करदर्शनं कृत्वा एव अन्यानि कार्याणि कर्तव्यानि उत्तमम् अनन्तरं यदि ध्वनिमुद्रणं किमर्थं श्रवणीयम् इत्यस्मिन् विषये किञ्चित् वदन्ति वा
द्विविधा लाभं भवति एकदा अनुसृत्य संशय परिहरति द्वितीय अभ्यासम् अपि च सम्पुष्टं भवति
उत्तमं महोदय अनन्तरं यदि कोऽपि वक्तुमिच्छति चेत् वदन्तु
द्विवारं श्रवणेन इति मनसि संस्कृते एव स्थापयति भवति
द्विवारं श्रवणेन पुनस्मरणं भवति
हा पुनस्मरणं भवति अथवा सम्यक् एव
विषयं ज्ञातुं शक्नुमः पुनः द्वितीयवारं श्रवणेन विषयं सम्यक् रीत्या ज्ञातुं शक्नुमः अनन्तरं वदतु
किञ्चित् ध्वनिः
अहं म्यूट् करोमि भगिनि शोभा भगिनी वदतु
ओ हा भगिनि पुनः पुनः श्रवणेन
श्रवणेन
पुनः पुनः श्रवणेन लैक् वंशभगिनी सेड् मनः स्थापयति ऐ वास् थिङ्किङ्ग् आफ् भगिनी पूर्वकाले
मनसि तिष्ठति
मनसि तिष्ठति लैक् पूर्वकाले स्तोत्राणि मन्त्राणि लैक् दे यूस् टु दट्स् हौ दे लर्न्ड् पुनः पुनः हा पुनः पुनः रिपीटिङ्ग्
उत्तमं
रिपिटिशन्
वदतु आशा भगिनी वदतु भूमा भगिनी वदतु
पुनः पुनः अध्ययनं कर्तुं शक्नोमि ध्वनिमुद्रश्रवणात्
तेन किं भवति तेन किं भवति
पुनस्मरणं पचति मनसि तिष्ठति सम्यक् अर्थं
सूचयति इत्युक्ते सुलभतया वयं विषयम् अवगन्तुं शक्नुमः अनन्तरं सुलभतया विषयं स्मरणे आगच्छति यु केन् जस्ट् रिकलेक्ट् इट् इमिडियट्लि उत्तमं आचार्यमहोदय भवान् वक्तुमिच्छति वा
आम् महोदय ध्वनिमुद्रस्य श्रवणेन अस्माकं सम्भाषणज्ञानं वर्धते अपि च पाठस्य पुनस्मरणं भवति एतस्मात् ये अंशाः वयं पठितवन्तः तेषां सम्यक् अवगमनम् अपि भवति मस्तिष्के वयं सम्यक् स्थापितुं शक्नुमः अपि च श्रवणेन के के दोषाः तेषां ज्ञानम् अस्माकं लभते दोषानां कृते चिन्तनम् अपि कर्तुं शक्नुमः
सम्यक्
उत्तमं महोदय उत्तमम् अनन्तरं इदानीं पर्यन्तं वयम् अभ्यासपुस्तके अष्टादशपुटपर्यन्तं पठितवन्तः. अहं चिन्तयामि पुनस्मरणस्य पुनः एकवारं पठनस्य आवश्यकता नास्ति इति अहं चिन्तयामि. किमर्थं चेत् भवन्तः अवगतवन्तः इति भाति. ऐ एम् अस्यूमिङ्ग् दट् इवन् दो वी हव् स्टडीड् अण्टिल् पेज् 18, देर् इस् नो नीड् फार् रेपिटिशन् बिकास् ऐ एम् अस्यूमिङ्ग् यु आल् अण्डर्स्टुड् दोस् न्यू वर्ड्स् पर्फेक्ट्लि. सो ऐ एम् नाट् गोयिङ्ग् टु do that revision again. Adhya vayam, adhuna vayam kim kurmaha ichukte, atra sarve abhyasa pushtakam pashyantu, ashtadashe pute pakasala sambandhini vastuni santi, kinchit kalam pakasala sambandhini vastunam vishye kanichana vakyani rachayamaha. Sarve abhyasa pushtakam pashyantu, atra kaha vadati, atra starting with भूमा भगिनी करोति वा अत्र प्रथमं चित्रं किं भगिनी?
अभ्यासपुस्तकम् इदानीं
नास्ति वा? उत्तमम्. अनन्तरम् अत्र कः अस्ति स्वागतं महोदय. वदतु भगिनि.
अष्टादशपुटं
अष्टादशे पुटे
अष्टादशे
गीतं. नमस्ते.
उत्तमं.
नमस्ते भगिनि.
नमस्ते भगिनि. अनन्तरम् अष्टादशे पुटे सर्वे पश्यन्तु.
पाकशालासम्बन्धीनि वस्तूनि.
प्रथमं चित्रं किं?
चषकः.
बहुवचनरूपं किं वदति भगिनि? बहुवचनरूपाणि वदतु.
चमसः चमसाः. घटः घटाः. मन्थानः मन्थानाः. करण्डकः करण्डकाः. पात्रं पात्राणि. मिश्रकं मिश्राणि.
पुनः
मिश्राणि.
पुनः
मिश्रकाणि. मिश्रकाणि.
उत्तमम्.
पेषकं पेषकानि.
पेषकाणि.
नि नि. स्थालिका.
किमर्थं तत्र किमर्थं पेषकाणि मूर्धन्यानि अकारादेशः भवति जानाति वा? वदतु.
स्थालिका. स्थालिके स्थालिकः.
पुनः
स्थालिकाः.
उत्तमम्.
छुरिका छुरिकाः. अग्निपेटिका अग्निपेटिकाः. सिक्तवर्तिका सिक्तवर्तिकाः. स्त्रीलिङ्गे अस्ति न
सिक्तवर्तिकाः.
आधानिका आधानिकाः. अनिलचुल्लिः. अनिलचुल्लिः अनिलचुल्लयः. द्रोणी गौरी गौर्यः द्रोण्याः द्रोण्यः द्रोण्याः. दर्वी दर्व्याः. बाष्पस्थली बाष्पस्थल्याः.
बाष्पस्थाली
स्थालीः.
न बाष्पस्थाली
स्थाली. बाष्पस्थाल्याः न
स्थाल्यः.
स्थाल्यः. कूपी कूप्यः. वेल्लनी वेलन्यः. शशकाधानी शशकाधान्यः.
उत्तमम्. इत्युक्ते अत्र बहुवचनरूपाणि वयं ज्ञातवन्तः. अनन्तरम् अग्रिमे अत्र अस्मिन् पुटे कानिचन वाक्यानि रचयामः. चषकः इत्यस्मिन् विषये एकं नूतनं वाक्यं वदन्तु. कः वदति उत्तमं वाक्यं?
चषकेन जलं पिबामि.
चषकेन जलं पिबामि. उत्तमं भगिनि अहं त्रीणि पदानि ददामि चषकः चमसः पात्रं पदत्रयं ददामि भवती चायं निर्मातु वदतु वाक्यानि वदतु अहं चषकं चमसं पात्रं त्रीणि वस्तूनि ददामि चायं निर्मातु ऐ एम् गिविङ्ग् यु त्री ऐटम्स् त्री वर्ड्स्
चमसेन च
भवती कथं भवती गृहे कथं चायं निर्माति वदतु
गृहं अहं गृहे पात्रेण चायं करोमि
पात्रेण चायं करोमि कः वदति चाय सम्यक् रीत्या निर्मातव्यम् अत्र हू केन् मेक् द टी पर्फेक्ट्लि
अहं प्रयत्नं करोमि भगिनि
वदतु भगिनि संस्कृतभाषायां वदतु
प्रयत्नं करोमि अहं पात्रे जलं स्थापयति
स्थापयामि
अनन्तरं चमसेन पात्रे मधुरम् अपि चाय
अत्र अत्र भगिनि अत्र अहम् अत्र प्रथमतया पात्रे जलं स्वीकरोमि अनन्तरं जलम् उष्णीकरोमि
उष्णीकरोमि
अनन्तरं
शब्दं पदं न जानामि
चमसमितं चायचूर्णं
चायचूर्णं ओ देट् वास् करेक्ट् ओके चायचूर्णं चायचूर्णम् अपि शर्करां ऐ नाट् स्थापयति अहं किं पदम् अस्ति भगिनि
अत्र यद् भवती उक्तवती तत् समीचीनं भगिनि अत्र अत्र यदि चायचूर्णम् इति वदामश्चेत् चमसमितं चायचूर्णं यदि शर्करां योजयामश्चेत् चमसमितां शर्करां किमर्थं चेत् तत्र किमर्थं चेत् शर्करा इति पदम् आकारान्त स्त्रीलिङ्गपदम् अतः चमसमितां शर्करां स्थापयामि उष्णजले
उष्णजले
अनन्तरं
चमसमितां शर्करां चमसमितं चायचूर्णं स्थापयामि अनन्तरम् अहं पात्रे क्षीरं स्थापयामि चषकेन क्षीरं स्थापयामि
उष्णीकरोमि
तदनन्तरं अहं चायं चषके फिल्टर् करोमि भगिनि
चषके स्थापयामि
स्थापयामि
चालनी उपयुज्य
चषके स्थापयामि अनन्तरं सन्तोषेण पिबामि
धन्यवादः चायनिर्माणार्थं धन्यवादः भगिनी सर्वे चायं पिबन्तु उत्तमम् अनन्तरम् अत्र अधुना वयं किं कुर्मः इत्युक्ते अस्मिन् पुटे कानिचन पदानि सन्ति अनन्तरं कुम्भः इति पदमस्ति घटः इति पदमस्ति घटः इति पदम् उपयुज्य कानिचन उत्तमानि वाक्यानि रचयन्तु उत्तमं वाक्यं चिन्तयन्तु घटः अथवा मन्थानः नो चेत्
दधिं स्थापयित्वा मन्थनेन मन्थयामि
मन्थानेन
मन्थयामि
मथनं करोमि. उत्तमं भगिनि, उत्तमं भगिनि. अन्य अन्यं वाक्यं श्रावयन्तु. कः श्रावयति?
शङ्करं वदामि.
वदतु भगिनि.
घटे घटे मृत्यु मृत्तिका. बोडि से फक्ले मृत्तिकं रे मृत्यु
मृत्तिका
मृत्तिका मृत्तिका एव सत्यं.
घटे मृत्तिका एव सत्यं. वा उत्तमम् उत्तमं
भगिनि
उत्तमम्. आचार्य महोदय भवान् वदति वा एकं वाक्यं?
घटस्य अन्ते यः आकाशः अस्ति बहिः अपि तदेव.
उत्तमम् उत्तमं सुन्दरं वाक्यम्. अनन्तरं
भारतीयः सामान्यतः घटे एव दधिं स्थापयित्वा तस् हस्ताभ्यां मन्थनं कृत्वा नवनीतं प्राप्नुवन्ति. परन्तु अधुना कोऽपि एतस्य विधानेन नवनीतं न उत्पादयन्ति. मन्थानाय यन्त्रस्य उपयोगं कुर्वन्ति. यन्त्रस्य उपयोगं कुर्वन्ति. एतत् वाक्यं समीचीनं वा? मन्थनाय
चतुर्थी विभक्ति महोदय. परन्तु वयं अत्र महोदय पश्यतु, केवलम् उपकरणं मन्थानः केवलम् उपकरणं. यदि उपकरणम् इति योजयित्वा किमपि कार्यं कर्तुम् इच्छामश्चेत् तत्र सर्वदा तृतीया विभक्तेः उपयोगमेव भवति.
एतत् करणं नास्ति, क्रिया मन्थनं. मन्थनं क्रियारूपेण अहं उपयोगं
मन्थनम् इति ल्यूट् ल्यूट् प्रयोगं
मन्थानाय यन्त्रस्य उपयोगं कुर्वन्ति.
उत्तमं
यन्त्रस्य उपयोगं कुर्वन्ति.
उत्तमं महोदय, धन्यवादः. अन्ये भानुचैतन्यमहोदय भवान् वक्तुमिच्छति वा? सतीश् महोदय भवान् करोति वा घटः इत्यस्मिन् विषये? महोदय वदति वा?
विद्युत् मन्थानम् उपयुज्य अहं नवनीतं गृह्णामि.
नवनीतं
गृह्णामि.
उत्तमम् उत्तमं.
भगिनी प्रश्नः अस्ति, पेषकम् इस् ग्रैण्डर्? वाट् इस् पेषकम्?
पेषकं तत्र दृश्यमस्ति महोदय, वयं पश्यामश्चेत् पेषणं करोति. ग्रैण्डर्. अनन्तरं वंशीसुधा भगिनी भवती किमपि वक्तुमिच्छति वा घटः इत्यस्मिन् विषये?
घटः एव मम मस्तिष्कः, मन्थान एव भक्ति एव प्रार्थना एव करोति चेत् नवनीतम् आगच्छति. नवनीतम् आगच्छति चेत् कृष्ण एव आगत्य स्वीकरोति.
उत्तमं. कृष्णः एव आगत्य स्वीकरोति. उत्तमम् उत्तमम्. अत्र अहम् एकं वाक्यं वदामि, अहमपि श्रुतवती एतत् वाक्यं. साधारणतया न्यायशास्त्रे ते वदन्ति सर्वदा घटः इत्यस्य अन्यनाम अस्ति कुम्भः. कुम्भः यः कुम्भं करोति सः कुम्भकारः. भवन्तः सर्वे जानन्ति एव, प्रथमतया कुम्भकारः यदा घटं निर्माति, प्रथमस्य घटस्य निर्माणं कुत्र भवति? सर्वे चिन्तयन्तु, कुम्भकारः घटं निर्माति, परन्तु प्रथमस्य घटस्य निर्माणं, प्रथमघटस्य निर्माणं कुत्र भवति? न्यायशास्त्रे एतत् विषय एतं विषयम् आगच्छति. प्रथमघटस्य निर्माणं कुत्र भवति?
in the clay?
Kahavadati.
कः वदति भगिनि उच्चैः वदतु, तदेव वदतु.
मृत्तिका एव अस्ति, सर्वे अपि एक्स्ट्रा मृत्तिका एव.
न भगिनि, न न
न वाट्स् द पाट् मेकर्? वाट् इस् द पाट् मेकर्? कुम्भकारः मनसि अस्ति निर्माणं.
तदेव सर्वे शृण्वन्तु, अत्र यद् भगिनी उक्तवती तत्तु सत्यम्. इत्युक्ते प्रथमघटः तस्य मनसि एव उत्पद्यते प्रथमतया, अनन्तरम् एव वयं सर्वे घटस्य रूपं बहिः पश्यामः. प्रथमघटस्य निर्माणं सर्वदा तस्य मनसि एव भवति, तदनन्तरम् एव वयं बहिः पश्यामः.
जस्ट् लैक् द सृष्टि भगिनि.
तदेव. अनन्तरं मन्थानः इत्यस्मिन् विषये एकं वाक्यं श्रावयन्तु. वयम् उक्तवन्तः पूर्वं करण्डकः इति, करण्डकः इति एकं पात्रमस्ति अत्र. करण्डकः इत्युक्ते जानन्ति वा?
न न भगिनि.
तस्मिन् किं स्थापयामः?
नवनीतं स्थापयामः.
अत्र अहं चिन्तयामि तत्र अवलेहं स्थापयामि. उपसेचनं स्थापयामि, नो चेत् अवलेहं स्थापयामि. अनन्तरं पात्रं वयं जानीमः, मिश्रकं, पेषकम्, अपि च स्थालिका अस्ति. स्थालिकायाः विषये कानि
महोदय?
पेषकम् इत्युक्ते वयं जानीमः एव.
इड्लि ग्रैण्डर्, ग्रैण्डर् ग्रैण्डर् वेट् ग्रैण्डर् यूसिङ्ग् स्टोन्स्.
पेषणं कुर्मः.
भगिनी भवती उक्तवती पेषकं, पेषकाणि किमर्थम्?
उत्तमम्, उत्तमः प्रश्नः. कः वदति एतस्य उत्तरं? कः ददाति?
शकार, रकार, रेप, शकार,
नकार, मकार.
अत्र पुनः अहम् एकवारं वदामि भगिनि. अत्र एकं सूत्रमस्ति संस्कृतभाषायां, रषाभ्यां नोणः समानपदे. यदि एकस्मिन् एव पदे रेफः इत्युक्ते रकारः, अथवा कृष्णरुकारः, अथवा मूर्धन्यषकारः एकस्मिन् एव पदे अस्ति चेत्, तस्मिन् एव पदे दन्त्यनकारः अपि अस्ति चेत्, तदा दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति इति एकं सूत्रमस्ति. इफ् देर् इस् इन् द सेम् वर्ड्, इफ् देर् इस् रेफा इत्युक्ते रकारः, अदर्वैस् कृष्णरुकारः अथवा मूर्धन्यषकारः अस्ति चेत्, तस्मिन् एव पदे इन् द सेम् वर्ड् दन्त्यनकारः नकारः अस्ति चेत्, तदा दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति इति एकं सूत्रमस्ति. रषाभ्यां नोणः समानपदे, अथवा अट्कुप् वाङ् नुं व्यवायति इति एकम् अन्यं सूत्रमस्ति. तेन सूत्रेण अत्र फलानि भवति, परन्तु गृहं गृहाणि भवति, तथा एव पात्रं पात्राणि इति भवति. परन्तु यदि यथा भवती उक्तवती अत्र पेषकम् अस्ति, पेषकम् इत्यस्मिन् पदे निमित्तं किम्?
शकार.
उत्तमं, शकारः निमित्तं. शकारस्य कारणेन तत्र दन्त्यनकारस्य स्थाने बहुवचने मूर्धन्यणकारादेशः भवति. तदर्थमेव पेषकाणि भवति, तथा एव मिश्रकं, मिश्रकाणि भवति अत्र. उत्तमम्. अनन्तरम् अत्र
बट् पदान्तनकारविहाय.
उत्तमं, उत्तमं. अत्र कानिचन केचन नियमाः सन्ति, परन्तु अत्र केवलं इदानीं अधुना एतत् पर्याप्तं. देर् आर् सम् रूल्स् देर् ओके. इदानीं केवलं वयं बहुवचनपदानां विषये वयं पठामः, अतः केवलं तत् ज्ञातव्यं चेत् पर्याप्तं भवति. वदतु भगिनि.
Sandeha bhagini, so anywhere in the word, if there is a sha, Krishna, ra, and sha, ra, and
ref,
Krishna ukaraha,
ukaraha, shakaraha, anywhere in the word bhagini, because here it is ending at with the peshaka and then that's where I got confused. I thought it had to be the last letter, but I don't know the Moola Padam for this one anyway, so
Tatra Kanichana Nima Kechana Nima Hasanti Bhagini Tatra Nimittam Api Avashyakam Anantram Tatra Badha Api Na Bhavitavyam. There must be some reason for that, and also some letters should not be there.
Okay.
There are some conditions applied.
Okay.
अनन्तरम् अत्र स्थालिका इति पदमस्ति. स्थालिका इति पदम् उपयुज्य कानिचन वाक्यानि वदन्तु.
बालकः स्थालिकायाम् अन्नं खादति.
स्थालिकायां खादति, उत्तमं. सुचित्रा भगिनी भवती वदतु. स्थालिका इति पदम् उपयुज्य
महोदया अधः अहं सिर्फ् शृणोमि.
उत्तमम्.
ओके,
चिन्ता मास्तु. चिन्ता मास्तु. कः वदति अनन्तरं? वंशसुध भगिनी स्थालिका इति पदम् उपयुज्य एकं वाक्यं रचयतु.
रोटिकानि स्थापयामि.
वदतु महोदय.
अहं किमहं वदामि? अहं स्थालिकायां रोटिकानि स्थापयामि.
स्थालिकायां रोटिकाः
स्थापयामि.
उत्तमं. वंशी सुधा भगिनि.
अद्यतनकाले बहूनि स्थालिका बहूनि पदार्थः स्थालिकाः एव आपणे अस्ति.
बहवः पदार्थाः तत्र किं वदामः इत्युक्ते, स्थालिकायां बहूनि न वदामः. किमर्थं चेत् तत्र पदार्थाः इति पदार्थः इति पुंलिङ्गपदम्, अतः बहून् पदार्थान् स्थापयामः. द्वितीयविभक्ति बहुवचनं, विशेषणमपि द्वितीयविभक्ति बहुवचनं. तत्र विशेषणविशेष्यभावः अस्ति. यदि भवन्तः जानन्ति चेत् तत्र एकं श्लोकमस्ति, यल्लिङ्गं यद्वचनं या च विभक्तिः, तल्लिङ्गं तद्वचनं सा च विशेषणस्य अपि, एकं श्लोकमस्ति. अत्र स्थालिकायाः विषये अहम् एकं वदामि. साधारणतया वयं स्थालिकायाम् आहारं स्थापयामः. प्रथमतया आहारं स्थालिकायाम् अस्ति, अनन्तरम् आहारं खादामः. आहारस्य खादनानन्तरम् आहारः कुत्र अस्ति? कुत्र अस्ति आहारं? स्थालिकायां अस्ति. वदतु. खादनानन्तरं
नाम कुक्ष्या अस्ति.
अस्ति इत्युक्ते आहारः मयि अस्ति इत्युक्ते, आहारस्य खादनानन्तरम् अहम् आहारः अहमेव अभवत्. अहमेव आहारः अभवत् इत्युक्ते अहमेव आहारः, आहारः एव अहम् इत्युक्ते इतोपि अहं वयं चिन्तयामश्चेत् आहारः एव अहम् इत्युक्ते अहमेव आहारः इति वयं चिन्तयामश्चेत् कथम् आहारं खादनीयं किम् आहारं खादनीयं किम् आहारं खादितव्यम् उत्तमः आहारः कः इति वयं यदि वयम् एतत् विषयं चिन्तयामश्चेत् सम्यक् रीत्या वयम् आहारं खादितुं शक्नुमः.
अस्तु भगिनि,
इत्युक्ते अहमेव आहारम् आहारमेव अहम् इति वयं चिन्तयामश्चेत् आङ्ग्लभाषायां वदन्ति वि आर् वाट् वि ईट् इति वयं चिन्तयामश्चेत् वयं सम्यक् रीत्या वयं खादितुं शक्नुमः. किमर्थम् आहारं खादनीयम् इति अपि प्रश्नः अस्ति. वै शुड् वि ईट्
शरीरपोषणार्थम्
उत्तमम्. अनन्तरं उत्तमं भगिनि, अत्रापि एकः विषयः अस्ति किमर्थम् आहारं खादनीयम् इत्युक्ते एकं श्लोकमस्ति शरीरमाद्यं खलु धर्मसाधनम् इत्युक्ते अस्माकं शरीरम् एव धर्मसाधनं खलु.
यदि शरीरं नास्ति वयं धर्मसाधनं न, यदि शरीरम् अस्ति तर्हि वयं धर्मसाधनं कर्तुं शक्नुम
उत्तमः. उत्तमम् इत्युक्ते यदि शरीरं नास्ति चेत् वयं धर्माचरणं कर्तुं न शक्नुमः, धर्माचरणम् अशक्यम्. अतः शरीरं सम्यक् एव भवतु, स्वास्थ्यं सम्यक् एव भवतु, तदानीम् एव वयं धर्माचरणं कर्तुं शक्नुमः. अहम् एकं श्लोकं श्रुतवती, भवन्तः सर्वे जानन्ति एव, एकः श्लोकः अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे. अनन्तरं ज्ञानवैराग्यसिद्ध्यर्थं भिक्षान्देहि. अहं किमर्थम् अन्नं खादामि इत्युक्ते ज्ञानवैराग्यसिद्ध्यर्थं खादामि. श्लोकः अन्नपूर्णाष्टके एकं श्लोकमस्ति, ज्ञानवैराग्यसिद्ध्यर्थं वयं खादामः. उत्तमम्. अनन्तरम् अत्र
भगिनि भवती भावचित्रे न भवति भावचित्रे सदा परमेश्वर अपि अन्नपूर्णेश्वरी भावचित्रे अन्नपूर्णेश्वरी माता भिक्षां दत्तवती परमेश्वरं भिक्षां दत्तवती. किमर्थम् अस्ति वाट् यु जस्ट् सेड्?
अहं चिन्तयामि तस्मिन् श्लोके श्लोकः किं वदति इत्युक्ते तत्र अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे एतानि पदानि सम्बोधनप्रथमविभक्ते सन्ति. इत्युक्ते वयं मातरं प्रार्थयामः अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे भिक्षां ददातु. किमर्थम् अहं किमर्थं भिक्षां ददातु? ज्ञानवैराग्यसिद्ध्यर्थं ददातु. तदर्थमेव वयं वदतु.
हा नो, ऐ वाज़ जस्ट् वण्डरिङ्ग् शी इस् गिविङ्ग् इट् टु शिवा, हीस् एक्सेप्टिङ्ग् फ्रम् हर्. ऐ आल्वेस् वण्डर्ड्
वदतु महोदय. अन्य कोऽपि वक्तुम् इच्छति चेत् शोभा भगिन्याः प्रश्नस्य उत्तरं वदन्ति चेत् सम्यक् भवति.
भगिनी क्षम्यतां, मम गमनम् अनिवार्यमस्ति. धन्यवादः.
धन्यवादः महोदय. वदतु, कः वदति?
शक्ति
क्वश्चन् शिवा इस् द सब्स्ट्राटम् अण्ड् शी इस् शक्ति. There is this picture where she is giving bhiksha to Shiva and he is accepting it on his knees.
Because she is the Shakti. Mayam Jagat, we say, no? इन् दट् डिफ़रेण्ट् स्कूल्स् आफ़् थाट्स्.
अस्तु अग्रे गच्छेम. अनन्तरम् अत्र कानिचन नूतनानि पदानि सन्ति. अत्र स्थालिका वयं जानीमः, छुरिका अपि च अग्निपेटिका, सिक्थवर्तिका अस्ति. सिक्थवर्तिका इत्युक्ते सिक्थम् इत्युक्ते भवन्तः जानन्ति एव, इत्युक्ते वेक्स्. आधानिका इत्यस्ति, आधानिका अपि च अन्यानि वाक्यानि. द्रोणी, द्रोणी इति पदम् उपयुज्य एकं वाक्यं रचयतु कोऽपि.
वस्त्रप्रक्षालनसमये वयं द्रोण्या जलम् आनयामः.
उत्तमं. दर्वी, दर्वी इति पदम् उपयुज्य वदन्तु.
दर्वी, दर्व्या वयं अन्नं परिवेशयामः.
उत्तमं. दर्व्या ओदनम् अथवा
व्यजनम्.
अत्र पश्यतु, अत्र व्यजनम् इत्युक्ते करि, व्यञ्जनम् इत्युक्ते व्यञ्जनम् इत्युक्ते
कान्सनेंट्. व्यञ्जनम् इत्युक्ते
ओके, व्यजनं
भगिनि.
अत्र अत्र पश्यन्तु, स्वराः वर्णमालायां स्वराः सन्ति, व्यञ्जनानि सन्ति. व्यञ्जनम् इत्युक्ते कान्सनेंट्, भाषायां वर्णाः सन्ति. परन्तु अत्र दर्व्या व्यजनं परिवेशयामि.
व्यजनम्,
तत्र भेदः अस्ति. व्यजनम् इत्युक्ते करि.
भगिनि, व्यञ्जनम् इन् कन्नडा इट् इस् व्यञ्जनम् मीन्स् करि एक्चुलि, व्यञ्जन. Kannada, I think same meaning, I think vyanjana in Sanskrit also. Vyajana means, I think it is fan, vyajana.
Oh, tathava.
Fan. I think so, vyajana. I am not sure, but...
Astu, astu. Aham api samyaktaya na drushtavati. Yad bhavan uktavan tattu samyajana meva. Aham chintayami vyanjana mi chukte... consonant
but vyanjanam
kari api
vyanjanam bhashayam
vyanjanam
astu astu samikam mahodaya. Anantram atra kim asti bashpasthali, bashpasthali iti padam upayujya ekam vakyam rachayatu kah vadati.
Aham pratidine bashpat thali upayujya अन्नं पर्पु च पर्पु च पचामि.
तत्र पर्पु इत्युक्ते संस्कृतभाषायां किं किं वदामः? पिष्टं वा
न जानामि
किं वदामः, किमपि. अस्तु, अनन्तरं कूपि वदतु महोदय.
परिप् मीन्स् वाट्? परिप्
परिप् दाल्, दाल्
अनन्तरम् अत्र कूपी अस्ति. कूपी इति पदम् उपयुज्य वदन्तु एकं वाक्यम्.
अहं तैलं कूपी कूपेन नयामि.
कूपेन नयामि, सम्यक् वा भगिनि? चिन्तयित्वा वदतु.
कूपे नयामि,
कूपे, कूपे नयामि अथवा सप्तमी विभक्ति,
देवालयं प्रति नयामि.
नयामि. अनन्तरं वेल्लनि, वेल्लनि वदतु.
वेल्लनि, वेल्लनि
अहम् अहं वदामि भगिनि.
वदतु भगिनि.
किञ्चित् विवादात्मकशब्दमस्ति. वेल्लनि द्विकार्यं करोति. प्रथमं वेल्लन्याः रोटी करोमि, अथवा वेल्लनी महिलायाः मुख्यशस्त्रः.
उत्तमम् उत्तमम्. हास्यगुलिका, हास्यगुलिका उक्तवती, गुलिकाम् उक्तवती. उत्तमम्. अनन्तरम् अत्र गृहसम्बन्धीनि वस्तूनि सन्ति. अत्र तदपि वयं कर्तुमिच्छामश्चेत् कर्तुं शक्नुमः. गृहसम्बन्धीनि पदानि.
एकः प्रश्नः अस्ति महोदय. वेल्लनी पदम् अहं वेल्लन्या अहं वेल्लन्या रोटिकां करोमि इस् ओके
उत्तमं वेल्लन्या रोटिकां करोमि वेल्लन्या रोटिकां निर्मामि
निर्मामि निर्मामि
अनन्तरम् अत्र गृहसम्बन्धीनि पदानि सन्ति तत्र वातायनम् इति पदमस्ति कः वदति वातायनम् इत्यस्मिन् विषये
मम गृहे षड् वातायनं सन्ति
षड् वातायनानि
वातायनानि सन्ति
उत्तमम् अन्यं वाक्यं कः वदति
गृहे वातायनानि वातायनानि बहु मुख्यं सन्ति
बहु मुख्यम् अस्ति
वातायनानि बहु मुख्यम् अस्ति
तत्र भगिनि पुनः एकवारं वदतु तदेव वाक्यं
गृहे वातायनानि बहु मुख्यं सन्ति ओन्लि रैट् भगिनि
वातायना तत्र पश्यतु मम गृहे वातायनानि मुख्यानि सन्ति यदि विशेषणरूपेण वदामश्चेत् मुख्यानि मुख्यपदम् अस्ति चेत्
ओके ओके ओके
तत्र विशेषण
ओके सो वातायनानि गृहे मुख्यम् अस्ति
मुख्यमस्ति
मुख्यमस्ति बिकास् आफ् सन्लैट्
उत्तमं तद् इत्युक्ते अत्र तस्मिन्नेव विषये अहम् अन्यं वदामि यदि वातायनस्य द्वारम् उद्घाटयामश्चेत् सम्यक् वायुः प्रचलति गृहे तथा एव चित्रमन्दिरेषु एका घोषणा अपि अस्ति कृपया वातायनद्वारम् उद्घाट्य धूमपानं करोतु वातायनद्वारम् उद्घाट्य धूमपानं करोतु इति अस्ति अनन्तरम् अत्र द्वारः इति पदमस्ति द्वारः एकं वाक्यं
प्रतिगृहे एकः द्वारः
आवश्यकः उत्तमम् अन्यं वाक्यं
द्वारे एकप्रश्नः अस्ति महोदय वातायनानि मुख्यानि दट् फ्रेस् विच् इस् द विशेष्यम् इन् दट्
वातायनानि चिन्तयतु भगिनि वातायनानि मुख्यानि
वातायनानि मुख्यानि वातायनानि विशेष्यम् अण्ड् मुख्यानि इस्
मुख्यानि विशेष्यं
मुख्यानि इस् विशेष्यं वातायनानि इस् विशेषम्
अत्र अहं चिन्तयामि वातायनानि विशेष्यं मुख्यानि
ओ
विशेषणं
किमर्थं साधारणतया विशेषणम् इस् सेड् फस्ट् नो
तथा न संस्कृतभाषायां पदस्य कोऽपि क्रमस्य प्राधान्यता नास्ति भगिनि
नास्ति
केवलं साधारणक्रमः अस्ति परन्तु पदं यत्र कुत्रापि भवितुम् अर्हति इत्युक्ते पदस्य प्राधान्यता किमपि नास्ति वातायनं मुख्यमस्ति मुख्यं वातायनम् अस्ति यथा मम नाम लक्ष्मीः मम नाम तदपि समीचीनम् अनन्तरम् अत्र भवन्तः सर्वे जानन्ति एव द्वारस्य पिधानं करोतु द्वारस्य उद्घाटनं करोतु इति वदामः भवन्तः सर्वे जानन्ति एव द्वारका इति नाम जानन्ति एव द्वारका इत्युक्ते किं जानन्ति वा कः वदति द्वारकानगरम् इति वयं जानीमः उत्तमं भगिनि. अत्र द्वारका इत्युक्ते इट्स् ए मेनि गेटेड् कम्युनिटि, अतः एव द्वारका इति नाम.
द्वारका टु मोक्ष.
अनन्तरम् अत्र कूपः इति पदमस्ति. कूपः इति पदम् उपयुज्य एकं वाक्यं रचयन्तु.
कूपात् वयं जलम् आनयामः.
कूपात् जलम् आनयामः. उत्तमम्.
सो कूपः इस् पुल्लिङ्गपदं, कूपी इस् स्त्रीलिङ्गपदं न?
आम् भगिनि, आम् आम्. कूपात् वयं जलम् आनयामः. अत्र यदि भवन्तः श्रुतवन्तः चेत् एकः न्यायः अस्ति, कूपस्थमण्डूकन्यायः. अत्र भगिनी वदतु, शोभा भगिनी वदतु इत्युक्ते किं.
मम अधुना राष्ट्रपतस्य बुद्धि कूपमण्डूकस्य बुद्धि अस्ति.
उत्तमम्
उत्तमं.
उत्तमम् इत्युक्ते तत्र किमस्ति, इत्युक्ते यः मण्डूकः सर्वदा कूपे तिष्ठति, स्थित्वा तत्र अहं सर्वं जानामि, एतदेव मम प्रपञ्चम्, एतत् सर्वं मम प्रपञ्चम्, अन्यप्रपञ्चं नास्ति इति यः मण्डूकः चिन्तयति स एव कूपस्थमण्डूकः. अनन्तरम् एकः अन्यः न्यायः अस्ति, कूपखानकन्यायः इति न्यायः अस्ति. संस्कृतभाषायां बहवः न्यायाः सन्ति, सर्वे पठन्तु, उत्तमानि सन्ति, ते सर्वे उत्तमाः सन्ति. अनन्तरम् अत्र रज्जुः इति पदमस्ति. रज्जुः इति पदम् उपयुज्य एकं वाक्यं रचयन्तु.
रज्जुसर्प.
वदतु भगिनि.
एकः रज्जुः, ओके, एकः रज्जुः अस्ति, परन्तु लैट् ओडिसे, लैट् ओडिसे
कान्तिः,
कान्तिः न अस्ति, किञ्चित् अस्ति. मम अहं दृष्टु रज्जुः दृष्ट्वा सर्पः
सर्पः एव अस्ति इति अहं
भ्रमितवती.
तत्र सर्पः अस्ति इति अहं भ्रमितवती. तदनन्तरं किम् अभवत्?
Oh my God, I can say it in English for just like that.
Vadatu bhagini.
Ayoyo Rama.
Anantaram saha sarpah na kevalam rajuh eva.
Brahma nivarti, after it gets...
Nivartanam abhavat.
Brahma nivartanam abhavat.
Bhakti jnatavati. किं
ज्ञातवती? रज्जुः एव दृष्टवती.
उत्तमं. तत्र केवलं रज्जुः एव अस्ति, न तु सर्पः इति भवती ज्ञातवती.
How will you say sarpah was not there before when I'm seeing and not anymore? For the past, present and future. How will you say?
तत्र रज्जुः एव अस्ति, केवलं सर्पः नास्ति इति भवती ज्ञातवती. तदेव.
At no time. What do you say? At no time.
Shigrameva. Jhatiti.
No. Not in no time. At any time. Like it was not there, there in the past.
It was never there.
How will you
Tatra, Tatra sarpaha eva nasti. केवलं भवती भ्रमितवती तावदेव
तावदेव
इत्युक्ते अत्र अस्य नाम अस्ति रज्जुसर्प न्यायः इत्युक्ते रज्जुसर्पभ्रान्तिः
रज्जुसर्पभ्रान्तिः
उत्तमं अनन्तरं अन्यानि पदानि सन्ति वा अत्र पर्यङ्कः इति पदमस्ति कः वदति पर्यङ्कः इत्युक्ते किं पर्यङ्कः
बेड्
बेड्
पर्यङ्केन एव सर्वे निद्रां कुर्वन्ति
पर्यङ्के एव वयं निद्रां कुर्मः तावदेव अन्यं वाक्यं वदन्तु
नारायणः शेषपर्यङ्के शयनं करोति
उत्तमम् अत्र किञ्चित् ध्वनिः अस्ति किञ्चित् म्यूट् करोमि अत्र अनन्तरं यथा भवती उक्तवती भवन्तः सर्वे श्रुतवन्तः एव एकः श्लोकः अस्ति सौन्दर्यलहरी इति तस्मिन् स्तोत्रे एकं श्लोकमस्ति श्लोकः कः इत्युक्ते सुधासिन्धोर्मध्ये सुरविटपिवाटै परिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे शिवाकारे मञ्चे परमशिवपर्यङ्कनिलये तत्र परमशिवपर्यङ्कं परमशिवपर्यङ्के शक्तिः वसति
ललिता परमेश्वरी
परमेश्वरी तिष्ठति उत्तमम् अनन्तरं दिनपत्रिका इति विषये एकं वाक्यं रचयन्तु रघुपतिमहोदय भवान् करोति वा
अद्यतनदिनपत्रिकायां केवलं मिथ्या मिथ्यावार्ता एव वयं द्रष्टुं शक्नुमः
सत्यं सत्यम् अनन्तरम् भवान् अद्यतनदिनपत्रिकायाः विषयम् उक्तवान् परन्तु ह्यस्तनदिनपत्रिकायाः गतिः का साधारणतया वयं ह्यस्तनदिनपत्रिकायाः गतिः उत्तमम् अनन्तरम् अत्र अन्यानि पदानि कानि विद्युत् व्यजनम् अस्ति विद्युत् व्यजनम् इत्यस्मिन् विषये एकं वाक्यं वदन्तु विद्युत् व्यजनम्
ग्रीष्मकाले वयं विद्युत् व्यजनं विना निद्रां कर्तुम्
न शक्यम्
विद्युत् व्यजनं
कः वदति विद्युत् व्यजनं एलेक्ट्रिक् फ़्यान् भगिनि
ओ एलेक्ट्रिक् फ़्यान् ओके विद्युत् व्यजनं अहं न पश्यामि एतानि पदानि
अत्र गृहसम्बन्धीनि पदानि इति एकं करपत्रं प्रेषितवती गते सप्ताहे अत्र अनन्तरम् अत्र विद्युत् व्यजनं अनन्तरं सीतकम् इति पदमस्ति सीतकम् इत्यस्मिन् विषये एकं वाक्यं सीतकम् इत्युक्ते रेफ्रिजरेटर् वदतु भगिनि
अद्यतनकाले कोऽपि गृहं नास्ति शीतकं विना शीतकं कोऽपि गृहं नास्ति
कोऽपि गृहं नास्ति शीतकं विना
टु नेगेटिव्
बहूनि गृहाणि सन्ति महोदय
कानिचन गृहाणि सन्ति वा
बहूनि गृहाणि सन्ति कानिचन
बहूनि गृहाणि सन्ति उत्तमम् इत्युक्ते तथा एव एतस्य शीतकस्य मूल्यं कति रूप्यकाणि इति अपि वक्तुं शक्नुमः नो चेत् एतत् शीतकं नूतनं वा अथवा पुरातनं वा अनन्तरं क्षालनयन्त्रम् अस्ति. एकं वाक्यं क्षालनयन्त्रं
क्षालनयन्त्रं वस्त्रक्षालयनं बहु सुलभं क्षालनयन्त्रेण वस्त्र क्षालयनं बहु सुलभं भवति.
उत्तमं. क्षालनयन्त्रेण वस्त्रक्षालनं बहु सम्यक् सुलभः भवति. सुलभः भवति. उत्तमम्. अनन्तरं समीकरः. समीकरः इति अन्यं पदमस्ति. समीकरः इत्युक्ते अत्र
ऐरन् बाक्स्.
ऐरन् बाक्स्. कः वदति?
क्षमीकरः भगिनि.
समीकरः.
समीकरः. सारि, ऐ डोण्ट् हेव् दट् इन् इन् फ्रण्ट् आफ़्. समीकरः
इत्युक्ते त्यजाम. यदि भवती वक्तुमिच्छति चेत् वदतु, नो चेत् अग्रे गच्छेम. अत्र एक अभ्यासपुस्तके किञ्चित् अभ्यासं शीघ्रं कुर्मः इत्युक्ते समयः अभवत्. सुचित्रा भगिनी, अभ्यासपुस्तके भवती किञ्चित् पठति वा? अत्र नवदशे पुटे भगिनि अस्ति वा? नो चेत् कः पठति अत्र? भानुचैतन्यमहोदय, भवान् करोति वा?
आम् आम् महोदय, किं पठनीयम् अत्र?
सुचित्रा भगिनी अस्ति वा?
अहम् अस्ति भगिनि. अहं गृहे
कार्यम्
अहम् अधः वदामि.
उत्तमं. भानुचैतनी महोदय, भवान् करोतु, अत्र शीघ्रं कुर्मः. नवदशे पुटे अत्र कानिचन पदानि सन्ति, पदानि अभ्यासं कुर्मः अत्र नवदशे पुटे, ऊनविंशतितमे पुटे.
आम् पश्यामि. किं पठनीयं भवति? रिक्तेषु स्थलेषु बहुवचनं रूपान् लिखतु. तत्
लिखतु, अभ्यासं करोतु. अत्र एकवचनं बहुवचनं वदतु शीघ्रं.
बालकः बालकाः, शिक्षकः शिक्षकाः, चषकः चषकाः, घटः घटाः, चमसः चमसाः, फेनकं फेनकाणि, गृहं गृहाणि, वस्त्रं वस्त्राणि, स्थालिका स्थालिकाः, अग्निपेटिका अग्निपेटिकाः, सिक्तवर्तिका सिक्तवर्तिकाः, सम्मार्जिनी सम्मार्जिन्यः सम्मार्जन्यः, द्रोणी द्रोण्यः, कूपी कूप्यः.
अधोभागे आभागे अपि किमस्ति, पठतु.
सः ते, एकवचनं सः, बहुवचनं ते. स्त्रीलिङ्गः सा ताः, नपुंसक तत् तानि, एषः एते, एषा एताः, एतत् एतानि.
उत्तमं.
कः के, का ताः, किं कानि.
अत्र कः के का काः किं कानि, एतानि कानि, एतानि पदानि कानि.
एतानि पदानि प्रश्नार्थकचिह्नानि.
उत्तमं. कथं वदामः सः ते सा ताः तत् तानि, एतानि पदानि कुत्र उपयोगं कुर्मः?
प्रश्नार्थकं
सर्वनामम् एतत्
सर्वं. एतानि सर्वनामपदानि, अपि च यदि दूरे अस्ति चेत् तेषाम् उपयोगं कुर्मः. अत्र मध्यभागे एषः एते एषा एताः वदतु महोदय.
समीपस्य अर्थे दूरस्य अर्थे उपयुज्य.
सः ते सा ताः तत् तानि, यदि ते दूरे सन्ति चेत् तेषाम् उपयोगं कुर्मः. अनन्तरम् एषः एते एषा एताः एतत् एतानि कुत्र उपयोगः भवति?
समीपे.
समीपे अनन्तरं विंशतितमे पुटे किम् अस्ति पठतु महोदय.
पूर्वतनकोष्टकस्य साहाय्येन रिक्तस्थलानि पूरयतु.
सर्वे शृण्वन्तु, भवन्तः सर्वे जानन्ति एव, केवलम् अभ्यासार्थं किञ्चित् शीघ्रं पठामः. पठतु महोदय.
एते बालकाः, एताः द्रोण्यः, एते चषकाः, एताः अग्निपेटिकाः, तानि पुस्तकानि, एताः घटः, एते घटाः, स्थालिका स्त्रीलिङ्ग, एताः स्थालिकाः सम्मार्जनी, एताः सम्मार्जन्यः, भाष्पस्थाली स्त्रीलिङ्ग, ताः भाष्पस्थाल्याः, प्रश्नार्थं तत् काः भाष्पस्थाल्यः.
उत्तमं.
कानि वस्त्राणि.
उत्तमं. सर्वाणि वाक्यानि एकवचने वदतु एकवारं शीघ्रम्.
एषः बालकः, एषः चषकः, एतत् पुस्तकम्, एषा स्थालिका, एषा भाष्पस्थाली, एषा द्रोणी.
अत्र बाष्पस्थाल्यः इति तत्र प्रश्नवाचकवाक्यमेव वदतु तत्र.
का भाष्पस्थाली.
उत्तमं.
का भाष्पस्थाली. एकवचनम्. एषा द्रोणी, एषा अग्निपेटिका, एषः घटः, एषा सम्मार्जनी, किं वस्त्रम्.
उत्तमम्. अनन्तरं 4.2 ई भागे अपि किमस्ति पठतु तत्रापि.
बहुवचनरूपाणि लिखतु. एषः जनः, एते जनाः, कः जनः, एते जनाः, एषा महिला, एताः महिलाः, सा स्थालिका. ताः स्थालिकाः, तत् उपनेत्रं, तानि उपनेत्राणि, सः चमसः, ते चमसाः, किं फलं, कानि फलानि, का भगिनी, काः भगिन्यः, एतत् गृहम्, एतानि गृहाणि, एषः सैनिकः, एते सैनिकाः.
अनन्तरमपि करोतु, भवानेव करोतु.
भवान् भवन्तः, भवती भवत्यः, अहं वयं, भवान् बालकः, भवन्तः बालकाः, भवती बालिका, भवत्यः बालिकाः, भवान् युवकः, भवन्तः युवकाः, भवती महिला, भवत्यः महिलाः.
अहमपि योजयित्वा वदतु. अहं बालकः,
अहं बालिका, अहं बालकः, अहं बालिका, अहं, वयं बालकाः, अहं बालिका, वयं बालिकाः, अहं युवकः, वयं युवकाः, अहं महिला, वयं महिलाः.
उत्तमं. धन्यवादः महोदय. अनन्तरं भवन्तः पार्श्वे एकं करपत्रम् अस्ति. तस्मिन् करपत्रे प्रथमाविभक्त्यन्तरूपाणि अपि च द्वितीयाविभक्त्यन्तरूपाणि अपि सन्ति. सर्वे एकवारं पश्यन्तु. यदि समयः अस्ति चेत् किञ्चित् कण्ठस्थीकरोतु, तेन बहु लाभः भवति. अनन्तरं केवलं 5 निमिषात् एव वयम् उपयुज्य कथां पठामः. अत्र मधुरायात्रा नाम्ना एका कथा अस्ति, कथां पठामः. अत्र कः पठति? शङ्करन् महोदय, भवान् पठितुमिच्छति वा? इदानीं पर्यन्तं भवान् न भागं
पठामि.
भगिनी करोतु. महोदय करोतु. मधुरायात्रा इति कथा अस्ति अत्र.
मथुरायात्रा. भगवान् श्रीकृष्णः गोकुले आसीत्. तदा अक्रूरः कश्चन आगच्छति. तदा वदति, हे कृष्ण, भवान् मथुराम् आगच्छत्. मातुलः तं सह आयुधसूजार्थम् आह्वयति. अक्रूरः वदति, ध्वंसौ सज्जौ भवताम्, अहं रथम् आनयामि. सः रथम् आनयति. तदा गोपिकाः तत्र आगच्छति. सा कृष्णं वदन्ति, कृष्ण, भवान् मथुरां मा गच्छतु, अत्र एव तिष्ठतु, अन्यथा अस्माम् अपि मथुरां नयतु. कृष्णः वदति, भवत्यः अत्र एव भवन्तु, सुकार्याणि कुर्वन्तु. सः रौदां वदति, भवती चिन्तां मा करोतु, अहं शीघ्रं प्रत्यागच्छामि. गोपाः इति तत्र आगच्छन्ति. तदा बलरामः तान् वदति, भवन्तः निश्चिताः भवन्तु, स्वकर्तव्याणि निर्वहन्तु, आवां शीघ्रं प्रत्यागच्छावः इति. यशोदा रोहिणीं च नमस्कृत्य तौ वदतः, भवत्यौ दुःखं मा कुरुताम्, आवां सखेन प्रत्यागच्छावः. नमस्कृत्य तौ रथेन मथुरां गच्छतः.
उत्तमं. भवान् अवगतवान् वा महोदय?
अवगन्तुं शक्नोति भगिनि.
सरला एव कथा अत्र. किञ्चित् पुनः परिशीलयाम. अत्र कथायाः शीर्षिका का महोदय, वदतु.
भगवान्
कथायाः शीर्षिका का? हेड्
मथुरायात्रा.
मथुरायात्रा. अत्र भगवान्
भगवान् कृष्णस्य मथुरायात्रा.
उत्तमम्. अत्र भगवान् इति पदमस्ति. भवान् जानाति वा भगवान् इति पदं? तकारान्तपदं भगवत्. भगवत् इति पदात् प्रातिपदिकरूपं भगवत्. अत्र भगवान् अधुना भगवान् कृष्णः कुत्र आसीत्?
गोकुले.
वर्तमानकाले एकं वाक्यं, एतदेव वाक्यं वर्तमानकाले रचयतु महोदय. भूतकाले अस्ति, वदतु.
भगवान् श्रीकृष्णः गोकुले अस्ति.
उत्तमं. तदा किं, तदा कः आगतवान् तत्र?
आसीत् इति भूतकालम् अस्ति इति चेत् वर्तमानकालम्.
उत्तमं महोदय. उत्तमम्. अनन्तरं तत्र कः आगतवान्? अत्र गोकुलं कः आगतवान्?
अक्रूरः
आगतवान्. तदा अक्रूरः आगतवान्. आगत्य किं वदति सः?
कृष्णां भवान् मथुरां आगच्छतु. कृष्णस्य मातुलः कंसः आयुधपूजनार्थम् आह्वानं करोति.
अक्रूरः वदति. उत्तमं. कृष्णस्य मातुलः कः?
कृष्णस्य मातुलः कंसः.
कंसस्य भागिनेयः कः?
कंसस्य वाहिनी देवकी
कंसस्य भगिनी देवकी परन्तु कंसस्य भागिने भागिनेयः
भागिनेयः वसुदेव कृष्णः
अत्र अत्र पश्यतु भगिन्याः पुत्रः भागिनेयः भगिन्याः पुत्रः भागिनेयः उत्तमम् उत्तमम् अनन्तरम् अत्र मातुलः इति पदमस्ति मातुलः इत्युक्ते अहं चिन्तयामि मात्रातुल्यः इत्युक्ते मात्रातुल्यः मातुलः मातुलः आङ्ग्लभाषायां किं वदामः तत्तु मेटर्नल् मेटर्नल् अङ्कल् इत्युक्ते मदर्स् ब्रदर् अतः एव मातुलः इत्युक्ते मात्रातुल्यः अनन्तरं कंसस्य भागिनेयः कृष्णः सः आयुधपूजार्थम् आह्वानं कृतवान् अनन्तरम् इतोपि किं वदति अक्रूरः कृष्णं प्रति इतोपि किं वदति
अक्रूरः वदति भवन्तौ सज्जौ भवताम् अहं रथम् आनयामि
अत्र पश्यतु महोदय भवन्तौ सज्जौ भवताम् अत्र लिङ्गवचनविभक्तिं वक्तुं शक्नोति चेत् वदतु
भवती भवतः भवन्तौ बहुवचनम्
अत्र पश्यतु महोदय भवान् भवन्तौ भवन्तः
क्षम्यतां भवन्तौ द्विवचनं
भवन्तौ उत्तमम् उत्तमं तथा एव अत्र सज्जौ इति अस्ति सज्जौ इत्युक्ते किं जानाति वा
सज्जौ भगवान् श्रीकृष्णः च बलरामः
अत्र सज्ज अत्र उत्तमं महोदय सज्जौ इत्युक्ते अत्र सज्जौ इत्युक्ते सज्जः सज्जः एकवचनरूपं सज्जौ द्विवचनं सज्जः इत्युक्ते सिद्धः भवन्तः सर्वे संस्कृतकक्ष्यार्थं सिद्धाः भवन्तु अथवा सज्जाः भवन्तु भगिनि अत्र भवन्तः सर्वे संस्कृतपठनार्थं सिद्धाः भवन्तु संस्कृतकक्षार्थं सज्जाः भवन्तु गेट् रेडि फार् द क्लास् भवन्तौ सज्जौ भवताम् इति पदमस्ति धन्यवादः महोदय अनन्तरम् अत्र शीघ्रं समापयामः अत्र भूमा भगिनी भवती गीता भगिनी भवती करोतु अत्र भवन्तौ सज्जौ भवताम् इति वाक्यम् अस्ति अत्र द्विवचने अस्ति एकवचने वदतु
भवन्तः सज्जः भवतु
पुनः
भवतः भवान् सारी भवान् भवान् सज्जः भवतु
उत्तमं बहुवचने वदतु
भवन्तः भवन्तः सज्जाः ओके भवन्तः सज्जाः भवन्ताम्
अत्र अधुना समयः जातः अतः शीघ्रं कुर्मः आचार्यमहोदय भवान् कर्तुमिच्छति चेत् शीघ्रं कुर्मः करोतु महोदय अत्र
भवन्तः सज्जाः भवन्तु
उत्तमम् अत्र रथम् आनयामि इति वाक्यमस्ति उत्तमपुरुषे अस्ति प्रथमपुरुषे वदतु
प्रथमपुरुषे सः रथम् आनयति
उत्तमम् अनन्तरम् अन्य अत्र अग्रिमे परिच्छेदं पठामश्चेत् तत्र सः रथम् आनयति कः रथम् आनयति
अक्रूरः रथम् आनयति
तदा किम् अभवत्
तदा गोपिकाः तत्र आगच्छति
आगत्य किं वदन्ति
आगत्य ताः वदन्ति कृष्णं वदन्ति कृष्ण भवान् मथुरां मा गच्छ अत्र एव तिष्ठ इति.
अत्र एव तिष्ठ, परन्तु ते मध्यमपुरुषे न वदन्ति, केवलं प्रथमपुरुषे एव भवान् इति
भवान् भवान् मथुरां मा गच्छतु, अत्र एव तिष्ठतु इति.
अत्र एव तिष्ठतु, अत्र इत्युक्ते अनन्तरम् इतोपि ते उक्तवत्यः गोपिकाः.
अन्यथा अस्मान् अपि मथुरां नयतु इति.
अत्र अन्यथा इति पदमस्ति, यदि अन्यथा इति पदं योजयामश्चेत् तथा वक्तव्यं. तत्र अन्यथा इति पदं त्यक्त्वा अन्यरूपेण वक्तुं शक्नुमः वा?
न चेत् अस्मान् अपि मथुरां नयतु इति. न चेत्
उत्तमम्, अत्र उत्तमं. नो चेत् इत्युक्ते भवान् मागच्छतु, अन्यथा अस्मान् अपि मथुरां नयतु, तथा अत्र एव दत्तमस्ति. यदि वयं वदामश्चेत् भवान् मा गच्छतु, नो चेत् अस्मान् अपि नयतु, एकपक्षे भवान् मा गच्छतु, अन्यस्मिन् पक्षे यदि भवान् तत्र गन्तुमिच्छति चेत् वयमपि भवता सह मथुरां नयतु, वयमपि मथुराम् आगन्तुम् इष्टाः, वयमपि मथुराम् आगन्तुम् इष्टवत्यः, भवान् मा गच्छतु इति ते गोपिकाः उक्तवत्यः. अनन्तरं किम् अभवत्? कृष्णः किम् उत्तरं ददाति?
कृष्णः वदति, भवती अत्रैव भवन्तु, अत्रैव तिष्ठन्तु, सर्वकार्याणि कुर्वन्तु इति. सः राधाम् अपि स्वकार्याणि कुर्वन्तु. सः राधामपि वदति, भवती चिन्ता मा करोतु, अहं शीघ्रं प्रत्यागच्छामि इति.
शीघ्रं प्रत्यागच्छामि, उत्तमम्. अत्र शीघ्रम् इति पदं किं वदति वा महोदय?
शीघ्रं कंसून् कंसून् शीघ्रम् इत्युक्ते अचिरात् एव.
अचिरात् एव, उत्तमम्. इत्युक्ते अत्र शीघ्रम् इति पदं क्रियाविशेषणम् इति वदामः.
गच्छामि
कथं गच्छामि? शीघ्रं गच्छामि,
विशेषण
क्रियाविशेषणम् इति वदामः. अत्र प्रथमतया गोपिकाः इति पदमस्ति, गोपाः इति पदमस्ति, तयोर्मध्ये भेदः अस्ति वा?
गोपाः पुल्लिङ्ग पुल्लिङ्ग बहुवचनम् अस्ति, गोपिकाः स्त्रीलिङ्ग बहुवचनम् अस्ति.
स्त्रीलिङ्ग बहुवचनं, उत्तमम्. अनन्तरं किम् अभवत्?
गोपाः अपि अत्र तत्र आगच्छन्ति, तदा बलरामः तान् वदति, भवन्तः निश्चिन्ता भवन्तु, स्वकर्तव्यानि निर्वहन्तु, आवां शीघ्रं प्रत्यागच्छावः इति. यथा कृष्ण गोपिकाः प्रति वदति, बलराम अपि गोपा प्रति वदति, भवन्तः निश्चिन्तः भवन्तु, स्वकार्यं निर्वहन्तु.
निर्वहन्तु, उत्तमं. वयं सर्वे आवां शीघ्रं प्रत्यागच्छावः. अत्र आवां शीघ्रं प्रत्यागच्छावः इति पदमस्ति, वाक्यमस्ति, एकवचने वदतु.
अहं शीघ्रं प्रत्यागच्छामि.
ओके, बहुवचने वदतु.
वयं शीघ्रं प्रत्यागच्छामः.
स्वकर्तव्यानि निर्वहन्तु, एकवचने वदतु.
स्वकर्तव्यं निर्वहतु.
भवन्तः निश्चिन्ताः स्वकर्तव्यं
भवान् निश्चिन्तः भवतु.
भवान् निश्चिन्तः
भवतु.
उत्तमं महोदय. तत्र अन्तिमं वाक्यं किमस्ति? ततः सर्वान् नमस्कृत्य तौ रथेन मथुरां गच्छतः. अन्यत् तव तु वदतु
महोदय. एकः प्रश्नः, कदा बलरामः तान् वदति इत्युक्ते बलरामः वदति तान्
इति, तान् किमर्थं
गोपाः अपि ओ तानि
अत्र पुनः वदतु महोदय. गोपिकाः गोपाः, गोपिकाः इत्युक्ते स्त्रियः, गोपाः इत्युक्ते
पुरुषाः.
अतः एव बलरामः गोपान् प्रति, अत्र गोपान् प्रति तत्र सर्वनामपदं तान् प्रति, तान् प्रति वदति. अनन्तरं तौ द्वौ अपि सर्वान् नमस्कृत्य तौ रथेन मथुरां गच्छतः इत्युक्ते तव तु वदतु महोदय, तव तु प्रत्ययं योजयित्वा वदतु अन्तिमं वाक्यं.
तव तु न स्मरामि, तव तु इत्युक्ते ततः सर्वान् नमस्कृत्य, नमस्कृत्य लेप्रत्य
नमस्कृत्य,
नमस्कृत्य
नमस्कृत्य इति पदं, नमस्कृत्य इति पदस्य रूपं किं, कः वदति?
नमस्कृत्य लेप्रत्यय, नमस्कृत्य
लेप्रत्ययः. किमर्थम् इत्युक्ते अत्र नमः इति पदम् उपसर्गरूपेण कार्यं करोति. अत्र संस्कृतभाषायां द्वाविंशति उपसर्गाः सन्ति, परन्तु एतेषु द्वाविंशति उपसर्गेषु नमः इति नास्ति, परन्तु नमः अत्र नमः इति पदम् उपसर्ग इव कार्यं करोति. अतः ल्यबन्त ल्यप्रत्ययं योजयित्वा वयं वदामः अत्र नमस्कृत्य इत्युक्ते ल्यबन्तप्रयोगः. तथा सर्वान् नमस्कृत्य तौ द्वौ अपि रथेन मधुरां गतवन्तौ.
साधारणतया नमः किं पदं?
सर्वान् तौ द्विवचनमस्ति अत्र,
द्विवचनमस्ति, परन्तु गच्छतः इति पदं वर्तमानकाले अस्ति, परन्तु भूतकाले वदामश्चेत् गतवन्तौ. उत्तमम्. अनन्तरं एकवचने वदामश्चेत् केवलं कृष्णः एव तत्र गच्छति चेत् एकवचने कथं वदामः, वदतु महोदय.
तथा सर्वान् नमस्कृत्य सः रथेन मथुरां गच्छति,
गच्छति अथवा गतवान्,
मथुरां गतवान् भूतकाले,
अथवा भूतकाले वदामश्चेत् मथुराम् अगमिषत्.
पुनः वदतु महोदय.
सः कृष्णः रथेन मथुराम् अगच्छत्,
अगच्छत्
ततः इत्युक्ते
ततः इत्युक्ते तदनन्तरम् अत्र यदि भवान् क्तप्रत्ययं योजयित्वा वक्तुमिच्छति चेत् कृष्णः रथेन मधुरां गतः, क्तप्रत्ययं योजयामश्चेत् गतः, तव तु योजयामश्चेत् गतवान्. यदि केवलं लङ् योजयित्वा वदामश्चेत्
गच्छति स्म.
उत्तमं. भगिनी भवती एव वदतु तत् वाक्यं, गच्छति स्म.
तौ रथेन मधुरां गच्छतौ स्म,
गच्छतः स्म
सारी गच्छतः स्म.
किमर्थं तत्र तथा इत्युक्ते तत्र केवलं लट्लकाररूपं योजयित्वा एव स्म योजनीयम्.
यस्,
इत्युक्ते गच्छति स्म, गच्छतः स्म, गच्छन्ति स्म. अनन्तरं कथायाः नीतिः इत्युक्ते कः वदति, अहं किञ्चित् वदामि, भवन्तः सर्वे यदि इच्छन्ति चेत् वदन्तु. अत्र कथायाः नीतिः इत्युक्ते सर्वदा कृष्णः वदति स्वधर्मं कुरु, स्वधर्मो निधनं श्रेयः, स्वकार्याणि त्यक्त्वा किमपि मा कुर्वन्तु. भगवन्तं स्मर्तव्यम् एव, परन्तु अस्माभिः विद्युक्तानि कार्याणि न त्यक्तव्यानि. भगवद्गीतायाम् अष्टादशे अध्याये परमात्मा वदति स्वकर्मणातम् अभ्यर्च्य सिद्धिं विन्दति मानवाः, तथा एव न कदापि स्वधर्मं न त्यजतु, सर्वदा स्वधर्मम् एव श्रेयः, स्वकार्याणि न त्यक्तव्यानि इति एव अस्याः कथायाः नीतिः। यदि भवन्तः किञ्चित् वक्तुमिच्छन्ति चेत् अहं श्रोतुमिच्छामि, वदन्तु।
भगवान् हौ डु ऐ से दट् भगिनि, भगवान् वाक्यानि,
भगिनी अत्र अत्र पश्यतु, भगवतः वाक्यानि,
भगवतः, धन्यवादः भगिनि, भगवतः वाक्यानि श्रद्धेन पालनं करोतु।
श्रद्धा इति पदम् आकारान्तपदम्, अतः श्रद्धया श्रद्धया
पालनीयं
वाक्यम् एकवचनं वदामश्चेत् पालनीयम्, अथवा बहुवचने वक्तुमिच्छति चेत् पालनीयानि,
भगवतः वाक्यानि श्रद्धया पालनीयानि, वि शुड् डु कुर्मः नो
श्रद्धया पालनीयानि, तदेव तत् सम्यक्
भगिनी।
अत्र एकं वक्तुम् इच्छामि, गते सप्ताहे भानुचैतन्यमहोदय उक्तवान् अनियर् प्रत्ययं प्रत्ययः अपि च तव्यत् प्रत्ययं योजयामश्चेत् तयोर्मध्ये भेदः अस्ति वा इति सः उक्तवान्। यत् वाक्यं भवती उक्तवती तत्तु अनियर् प्रत्ययं योजयित्वा उक्तवती, इत्युक्ते भगवतः वाक्यानि पालनीयानि। तत्र यदि भवन्तः जानन्ति चेत् कर्मणि प्रयोगे संस्कृतभाषायां दशलकाराः सन्ति, दशलकारेषु विधिलिङ्गलकारः एकः लकारः, विधिलिङ्ग् इत्युक्ते अस्माकं विद्युक्तकर्तव्यं किम् इति वदति विधिलिङ्ग्। अत्र कर्मणि प्रयोगे तव्यत् प्रत्ययः अपि च अनियर् प्रत्ययः नाम्ना प्रत्ययद्वयमस्ति, इत्युक्ते यदा भवती उक्तवती भगवतः वाक्यानि पालनीयानि, यदि अनियर् प्रत्ययं योजयित्वा वदामश्चेत् पालनीयानि इति वदामः, यदि तव्यत् प्रत्ययं योजयित्वा वदामश्चेत् भगवतः वाक्यानि पालितव्यानि तथा वदामः। अन्यं वाक्यं वदतु, अन्य कोऽपि वक्तुमिच्छति वा, नो चेत् भवती एव वदतु कथायाः नीतिः, अथवा इतोपि अन्य किमपि।
श्रद्धा अस्ति चेत् चिन्ता मास्तु,
उत्तमं, श्रद्धा अस्ति चेत् चिन्ता मास्तु, इत्युक्ते तदेव भगवान् अपि उक्तवान् किं, श्रद्धावान् लभते ज्ञानम्, श्रद्धा आवश्यकी, श्रद्धया एव वयं ज्ञानं प्राप्तुं शक्नुमः, श्रद्धावान् लभते ज्ञानं। शङ्करन् महोदय वदतु।
इण्टर्नेट् सडन्लि इट् वेण्ट् आफ्, ऐ जस्ट् गाट् कनेक्टेड् ओन्लि, प्रश्नं किं भगिनि,
सम्यक् न श्रूयते महोदय, किञ्चित् पुनः किञ्चित् वदतु, सम्यक् न श्रूयते,
त्वां प्रश्नं किं भगिनि,
वदतु महोदय,
प्रश्नं अहं न शृणोमि, इण्टर्नेट् प्राब्लम् किञ्चित् प्राब्लम्,
अत्र वयं कथां पठितवन्तः, केवलं कथायाः नीतिः का इति वयं चर्चयामः, भवान् किमपि वक्तुमिच्छति चेत् वदतु।
एकनिमिषं किञ्चित्
आशा भगिनी भवती वक्तुमिच्छति वा, नो चेत् भूमा भगिनी वदतु अथवा गीता भगिनी भवती किं किमपि वदति वा
प्रथमः स्वकार्यं कर्तव्यं स्वकार्यं करणीयं बहु मुख्यं बहु आवश्यकम् अन्यथा अन्यत् अदर्स् वर्क् औडिसे अन्यथा अन्यथा कार्यं कर्तव्यं न आवश्यकम्
अन्येषां जनानां कार्यम् अन्येषां जनानां कार्यं
अन्येषां जनानां कार्यं
मा कर्तव्यम् अथवा न कर्तव्यम् उत्तमम् अनन्तरं कः वदति आचार्यमहोदय भवान् वदति वा
भगिनी
वदतु
श्री भगवान् कृष्णस्य अवतारकार्यं कंस वदमेव तस्मात् भगवान् कृष्णस्य मथुरायात्रा अवश्यम्
तस्य मथुरायात्रा आवश्यकमेव
आवश्यकमेव कालविलम्बनं नास्ति चेत् कृष्णस्य कंसस्य वदम् कृष्णन् अवश्यं पूर्णावतारं तस्मात् तत् स्वकार्यं किं आवश्यकम् आवश्यकं ज्ञातवान्
ओ कृष्णः कृष्णः कर्तव्यं किं स्वकर्तव्यं किम् इति स्वयं ज्ञातवान् अतः एव सः उत्तमः आचार्यः सः आचार्यः इत्युक्ते यः आचरणं कृत्वा एव सः वदति
तदनन्तरं बोधयन् अवश्यं
मधुरां तदर्थमेव मधुरां गतवान् उत्तमम् अन्य के भगिनी वंशसुधा भगिनी भवती वक्तुमिच्छति वा
इदानीमेव किञ्चित् भिन्नः अहं चिन्तनीयम् अक्रूरः इत्यर्थं क्रूरः अतः नास्ति चेत् कृष्णः मथुरा एव गच्छति मथुरा इत्युक्ते मधुरं अहमेव अक्रूरः अस्ति चेत् मथुरायात्रा अहमेव करिष्यामि
अक्रूरः यथा भवती उक्तवती तथा अक्रूरः इत्युक्ते तत्र सः क्रूरः न तत्र नैतत्पुरुषसमासः अस्ति समासं यदि समासं पठामश्चेत् तत्र वयं ज्ञातुं शक्नुमः अक्रूरः इत्युक्ते न क्रूरः नैतत्पुरुषसमासः सः तदर्थमेव कृष्णः अक्रूरेण सह गच्छति यथा वदतु
वयमपि अक्रूरः नास्ति चेत् कृष्णः आगच्छति कृष्णेन सह अहं मथुरायां गच्छामि मथुरायात्रा एव अस्ति
अनन्तरं शोभा भगिनी
चिन्तनं भगिनी एतानि त्रीणि वाक्यानि स्वकार्यं करोतु भगवतः वाक्यानि पालयनीयम्
अत्र भगिनी पालनीयम् अनियर् प्रत्ययः नो चेत् केवलं सरलवाक्यं वदामश्चेत् पालयतु लोट्लकार
पालयतु
सर्वे अथवा सर्वे पालयन्तु
पालयन्तु
श्रद्धा अस्ति चेत् चिन्ता मास्तु. एतानि त्रीणि वाक्यानि एकविधे कृष्णस्य उपदेशं कुरुक्षेत्रे अर्जुनं कृष्णस्य उपदेशं सारांशम् अस्ति.
सारांशः अस्ति, उत्तमं. सारांशः अस्ति,
सारांशः अस्ति. अपि सर्वकाले
सर्वदा
it applies. How do I say that, Bhagini?
Acharaniyam.
Anvayati. Sarvakale. Anveti.
Anveti. Anveti. Anantram. Raghupati Mahodaya, bhavan kimapi vaktum icchati va?
Na Mahodaya. Yap chinchitam sarve api uktavantah atha. किमपि अवशेषः नास्ति.
उत्तमम्. अधुना विरमाम. सर्वेषां धन्यवादः. नमस्कारः.
धन्यवादः.
धन्यवादः.
भगिनी.